एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। राष्ट्रपतिना रामचन्द्र पौडेलेन भूसम्बद्धान् कांस्य नेपालाधिनियमान् संशोधयितुं निर्मितः एतत् विक्रमवर्षीयः अध्यादेशः क्रियान्वितो वर्तते। राष्ट्रपतिना पौडेलेन नेपालस्य संविधानस्य अनुसारेण मन्त्रिपरिषदः परामर्शेन भूसम्बद्धाध्यादेशः क्रियान्वितोऽस्तीति राष्ट्रपति कार्यालयेन प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। सर्वकारेण सम्प्रत्येव क्रियान्वितः अध्यादेशः अतीव महत्वपूर्ण, तत्कालम् अधिनियमान् संशोधयितुम् अत्यावश्यकः एव अध्यादेशः आनीतः सन्तीति स्पष्टीकृतं वर्तते। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्यः आयोजिते पत्रकार सम्मेलने प्रधानमन्त्री केपी शर्मा ओली सर्वकारेण आनीतेषु अध्यादेशेषु सत्तारूढानां दलानां सहमतिरस्तीति चर्चयन् एते अध्यादेशाः समृद्धो नेपालः सुखिनो नेपालिनश्चेति लक्ष्यं पूरयितुं प्रस्तुताः सन्तीति अभाषत। प्रधानमन्त्री ओली आर्थिक विकासेन समृद्ध्या च सह योजितान् विषयान् तत्कालं सम्बोधयितुम् अध्यादेशाः आनीताः वर्तन्ते इति समस्पष्टयत्। प्रधानमन्त्री ओली वर्तमान सर्वकारः कार्यं कर्तुं देशे राजनीतिक स्थिरतां च आनेतुं निर्मितोऽस्तीति चर्चयन् जनतायाः आकांक्षायाः सर्वकारेण सम्बोधनं विधास्यते इति प्रावोचत्। तदवसरे प्रधानमन्त्री ओली संसदि प्रस्तुष्यमाणानि विधेयकानि प्रस्तावाश्च निर्मीयमाणः सन्तीति चर्चयन् उपयुक्ते समये संसदः अधिवेशनम् आह्वास्यते इति अवदत्। एतत्पूर्वं पत्रकार सम्मेलने मुख्य सचिवः एकनारायण अर्यालः अध्यादेशानां विभिन्नान् पक्षान् प्रकाशयन् अध्यादेशेन देशस्य अर्थतन्त्रस्य उन्नयनं करिष्यते, जनतायै प्रत्याभूतेः प्रदायकाः सबलाः कार्यक्रमाः आनेष्यन्ते चेति अभाषत। सार्वजनिक सेवा प्रसारण नेपालस्य पूर्वारम्भ कार्यक्रमस्य अन्तर्गतं ह्योऽपि विभिन्नेषु विषयेषु समूहगतं विमर्शनं सम्पन्नमस्ति। सार्वजनिक सेवा प्रसारणस्य पूर्वारम्भ कार्यक्रमस्य द्वितीय दिवसे ह्य आयोजिते स्वास्थ्य शिक्षा सम्बद्ध विमर्शने सार्वजनिक सेवा प्रसारण नेपालेन संघ प्रदेश स्थानीय स्तराणां समन्वयेन स्वास्थ्य शिक्षा क्षेत्रे गुणस्तरीय प्रभावकारिणी च विधातुं भूमिका निर्वोढव्येति बलं दत्तमस्ति। विमर्शने सहभागी स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः, शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई छ। स्वास्थ्य शिक्षा सम्पूर्ण जनतायां प्रापयितुं सर्वकारेण विधीयमानानां कार्याणां विषये स्वस्य कार्यक्रमाणां समाचाराणां च माध्यमेन सूचनां सम्प्रेष्य भूमिका निर्वोढव्येति परामृष्टवन्तौ। विमर्शने सार्वजनिक सेवा प्रसारण नेपालस्य कार्यकार्याध्यक्ष डा महेन्द्र विष्ट स्वास्थ्य शिक्षा क्षेत्रे प्राथमिकतायां संस्थाप्य सार्वजनिक सेवा प्रसारणेन अग्रे वर्धिष्यते इति प्रतिबद्धता अदापयत्। विमर्शने सहभागी जनै विपद संकट न्यूनीकरण व्यवस्थापन सम्बद्ध विषयगत विमर्शने सम्बद्ध निकायै समन्वयकारी भूमिका निर्वोढव्येति बलं दत्तमस्ति। विमर्शने प्राध्यापकः डाक्टर विशालनाथ उप्रेती, जलवायु वातावरण विज्ञान विभागस्य उपमहानिर्देशकः डाक्टर अर्चना श्रेष्ठः, राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणस्य प्रवक्ता डाक्टर डीजन भट्टराई, नेपाली सेनायाः विपद व्यवस्थापन निर्देशनालयस्य महासेनानी हरिश बहादुर बम, नेपाल प्रहरिणः प्रवक्ता वरिष्ठ प्रहरी उपरीक्षकः विश्व अधिकारी च विचारान् व्यक्तवन्तः। भूकम्प सुरक्षा दिवसः सर्वकारेण ह्यस्तनात् दिवसात् विभिन्नेषु समयेषु दुरापन्नेन भूकम्पेन भग्नानां नैजावासानां पुनर्निर्माणं प्रारब्धमस्ति। माघमासस्य द्वितीय दिवसे भूकम्प सुरक्षा दिवसमुपलक्ष्य सर्वकारेण नैजावासानां पुनर्निर्माणं प्रारब्धमस्तीति ज्ञापितं वर्तते। पुनर्निर्माणस्य दायित्वं निर्वहता राष्ट्रिय संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन डोची भूकम्पेन प्रभावितानां नैजावासानां पुनर्निर्माणम् आरभ्यते इति सूचितमस्ति। डोची जनपदे दूरापन्नेन भूकम्पेन पञ्चसु जनपदेषु नवसहस्राणि षट्शतं द्वेशीतिश्च गृहाणि प्रभावितानि वर्तन्ते। प्राधिकरणस्य सहसचिवः डाक्टर भीष्मकुमार भूषालः केषुचित् वर्षेषु नेपाले विभिन्न स्थानानि केन्द्रबिन्दु निर्माय भूकम्पस्य दुरापन्नस्य कारणात् अनेके जनाः गृहावासरहिताः जातेत्यतः तेषां कृते नैज गृहावासानाम् आवश्यकता अस्तीति प्रत्यपादयत्। प्रधानमन्त्री केपी शर्मा ओली भूकम्प प्रभृतिभ्यः प्राकृतिक विपदभ्यः संरक्षणार्थं सर्वहि क्षेत्रहि प्रभावपूर्णं पूर्वकार्यं विधेयम् इत्यत्र बलं ददाति। सप्तविंशतितमस्य राष्ट्रिय भूकम्प सुरक्षा दिवसस्य अवसरे राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन ह्य कीर्तिपुर स्थाने आयोजिते मूल समारोहस्य कार्यक्रमे प्रधानमन्त्री ओली द्वासप्तत्यधिक द्विसहस्रतमे विक्रम वर्षे दुरापन्नस्य भूकम्पस्य अनन्तरं निर्मितासु एकीकृत वसतिषु तुलनात्मक रूपेण सुरक्षायाः स्थितिः समीचीना अस्तीति प्रावोचत्। राष्ट्रपतिना रामचन्द्र पौडेलेन त्रयाणां देशानां कृते आवासीयतर राजदूतः नियुक्तः वर्तन्ते। राष्ट्रपतिना पौडेलेन क्यानडा देशस्य कृते आवासीय राजदूतः भरत पौड्यालः क्यूबा देशस्य कृते आवासीय राजदूत पदे नियुक्तो वर्तते। एवमेव राष्ट्रपतिना पौडेलेन थाईल्याण्ड देशस्य कृते नेपालस्य आवासीय राजदूतः धनबहादुर ओली भियतनाम देशस्य कृते ब्राजील देशस्य कृते आवासीय राजदूतः निर्मल राज काफ्ले च भेनेजुएला देशस्य कृते आवासीयतर राजदूत पदे नियुक्तो स्थिति राष्ट्रपति कार्यालयेन ज्ञापितं वर्तते। राष्ट्रिय स्वतन्त्र दलस्य अध्यक्षः रवि लामिछाने न्यासवित्तं प्रदाय कारागारात् मुक्तोऽस्ति। काष्ठमण्डपस्य स्वर्णलक्ष्मी सहकारी संस्थायाः वित्तापचलनस्य अभियोगे काष्ठमण्डप जनपद न्यायालये कारावास दण्डन सम्बद्धस्य विमर्शनस्य अनन्तरं न्यायाधीशस्य माधव प्रसाद अधिकारिणः न्यायपीठेन सभापतिं लामिछानेभिदं षष्ठेर्लक्षाणां रूप्यकाणां न्यासवित्तेन उन्मोक्तुम् आदेश प्रदानानन्तरं न्यासवित्तं समर्प्य सभापतिः लामिछाने ह्य एव कारागारात् मुक्तो वर्तते। प्रतिपक्षी राजनीतिक दलानां नेतृभि तत्कालं संसदः अधिवेशनम् आह्वातुं याचना विहिता अस्ति। नेकपा माओवादी केन्द्रस्य संसदीय दलस्य कार्यालये ह्य उपविष्टेन विपक्षी दलानां उपवेशेन जनसम्बद्धानां विधिर्निर्माणस्य च विषये विमर्शनाय तत्कालमेव संसदः अधिवेशनम् आह्वातुं याचना विहिता वर्तते। नेपाल तैल निगमेन पेट्रोल तैलेन्धनस्य डीजल तैलेन्धनस्य मृत्तिका तैलेन्धनस्य च मूल्यं वर्धितमस्ति। निगम संचालक समितेः ह्यस्तनोपवेशेन पेट्रोल तैलेन्धने प्रतिलिटरमितं रूप्यकद्वयं डीजल तैलेन्धने मृत्तिका तैलेन्धने च प्रतिलिटरमितं त्रीणि रूप्यकाणि च वर्धितानि सन्ति।